नमः सर्वेभ्य. पुनः एकवारं संस्कृतभाषायां कक्षायां स्वागतम्. शैलजा भगिनी वदतु.
ॐ गणेशाय नमः. ॐ वाघर्ताविव सम्प्रक्तौ वाघर्ता प्रतिपत्तये जगतः पितरौ वन्दे पार्वती परमेश्वरौ. ॐ येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै. ॐ शान्ति शान्ति शान्तिः.
धन्यवादः. सुन्दररीत्या भवती उक्तवती. उच्चारणम् एव बहु सुन्दरम् अस्ति. धन्यवादः. अस्तु, अहम् एकं श्लोकं वदामि. ॐ अभिवादनशीलस्य नित्यवृद्ध उपसेविना चत्वारितस्य वर्धन्ते आयुर्विद्या यशो बलम्. अस्तु, कोऽपि प्रश्नः अस्ति? क्षम्यतां शिवरूपा भगिनी, अहं समयः न प्राप्तवती भवत्याः गृहपाठं परिशीलयन्तुं न कृतवती, किन्तु अग्रे करोमि. उत्तमम् उत्तमम्. अस्तु अस्तु, षष्टिविभक्ति किम्? एकः प्रश्नः, षष्टिविभक्ति किम्?
षष्टिविभक्ति सम्बन्धे वा?
सम्बन्ध इत्युक्ते किम्?
Related to something.
Association. संस्कृत भाषायां संबंध association एव possessive नास्ति, ownership नास्ति, किन्तु आङ्ग्लभाषायां षष्टिविभक्तिरूपम् इति आङ्ग्लभाषायां शब्दः पोसेसिव् केस्. जेनेटिव् केस् इत्युक्ते पोसेसिव् केस्. पोसेसिव् इत्युक्ते ओनर्शिप्. मै हस्बेण्ड् इत्युक्ते यु ओन् देट् रिलेशन्शिप् आफ् हस्बेण्ड्. किन्तु संस्कृतभाषायां सम्बन्ध एव, असोसियेशन् एव. सो इट्स् इम्पोर्टेण्ट् जस्ट् टु स्पेण्ड् वन् सेकेण्ड् वेन् यु यूस् सम्बन्ध, वेन् यु यूस् षष्टिविभक्ति, टु अण्डर्स्टाण्ड् द डिफ़रेन्स्. भेदः कः? भेदः इति पोसेसिव् इत्युक्ते यु कण्ट्रोल् देट्. Possession includes what? What is possession? When you say, I possess something, I own my house, I own, I don't know, my pajamas. What does it mean? It means you have the sole rights over it. Astiva? पोसेसिव् इत्युक्ते किम्? किन्तु संस्कृतभाषायां सम्बन्ध एव, फार् देट् टैम् एण्ड् स्पेस् देर् इस् एन् असोसियेशन् आफ् यु एण्ड् देट् पजामा, यु एण्ड् द हौस्, यु एण्ड् your child, you and your husband, anybody, anything. It's temporary association. You don't, nobody owns anything. So if you say that's kind of interesting, I mean, I think my child means like, I, you know, it's my child. Kintu, iti chintayatu, do we own ourselves? Your own body, for example, can you say my body in the sense of ownership? No, you cannot. You don't own when it was born. You never made those decisions. You will not own when it will go. How it will be throughout life, that also you can change a few things, you don't own it. When it will get sick, when it won't get sick, don't own it. How it will look, that also you don't own. And if you think you own yourself, then how about your mind? You mean to say every mind thought that comes to you, every thought in your mind, is something you decided to have? I wish. No? As a yogi, we are trying to be. But that's not the case. So it's important to keep in mind, Shashti Vibhakti Sambandha Eva. अवगतं वा?
अवगतं.
सर्वेभ्यः अवगतं?
The moment somebody dies, the moment somebody dies, their name is no more called, it is called as the body. That itself shows that we are different and then the body is different.
Even when you don't die, the body is different.
that's true. But we realize it only at that end.
Uttamam.
If we realize it that in the beginning itself, then what you call us, he becomes a yogi.
Nishkama karma ichukte kim, without ownership to do something and everything. That is the whole Bhagavad Gita. In the middle of this battlefield, Krishna Bhagavana Uvacha, निष्काम कर्म कुरु, सब काम करिए, आप सारे काम करिए, लेकिन ये मत सोचिए ये मैंने किया, ये मेरे से हुआ, ये मेरा है, ये घर मेरा है, मैंने बनाया, ये घर बन गया, प्रकृति के स्वभाव से बना, आपने थोड़ी मिट्टी बनाई, आपने थोड़ी ईंट बनाई, ईंट भी बनाई होगी तो ईंट जो मिट्टी की बनी वो मिट्टी थोड़ी आपकी बनी है, मिट्टी का स्वभाव है वो, ईंट का स्वभाव है वो, लकड़ी का स्वभाव है वो, कांच का स्वभाव है वो। सिमिलरली ये शरीर का भी अपना स्वभाव होता है, मन का भी अपना स्वभाव होता है। एक्चुअली एवरीथिंग एल्स हैज अ मोर राइट टू बी कॉलिंग देमसेल्व्स ओनर अदर देन दिस आई, ईगो. Ego is the only thing that cannot call anything mine. The body can say, this is my swabhava. Water can say, it is my swabhava to freeze when it is cold. The only thing that cannot say all this is ego. And that's the only thing that says it.
That's the gestaposition. This now I'm realizing that more and more as and when, every moment I serve my father, I look at my.
So beautiful.
It's a great learning experience.
Journey. Oh my God, such a. My mother is in the same condition, Mahodaya. I will go to her on. She's now with my brother, and I'll go on end of this month to be with her. So it's a, yeah, we all will have this situation with our parents and elders and with our own bodies.
No, so that's what, not a, what I see is what will be our condition 20 years, 30 years down the lane.
Or maybe tomorrow.
Tomorrow only, who knows? Now, this moment also, who knows?
Who knows? Nobody plans. see, your father did not plan this. My mother Never. Says, this is not my plan.
That's what even he also says.
She says, I planned so many things for my... I knew I would become old. I knew I would not be able to walk. So I planned to do... I kept all these little things that I like to do with next to my big chair where I like to sit. The house itself, the country itself, she had to leave. My. Because her son is here.
It's true.
New culture, new everything. Very depressed. She's very depressed. She says, I'm a living corpse.
No relief.
She calls herself. Living corpse. Of no value. But this is what we are have. This is why we need to have elders in our house.
True, madam. Very true.
Every generation should see this and use that to care for elders. Such an important thing. Today, old people's home, old people. India may be old people's home, aage, I heard.
Bad raha hai aajkal.
So that is why we need to return to Sanskrit Bhasha. The language alone will take care of it. We don't need to preach anybody anything. I'm only sharing this with you because I have a heart-to-heart association with you. But simply without anything, only language itself will rewire your grammar in the brain. That grammar alone will take care of it. Nobody has to teach you Sambandha means this. When you start using the language, automatically it will come. The distance will come. The distance that Krishna Bhagavan says to keep with everything. What distance? Nishkama. Without attachment. Without ownership. So this is not a philosophy class. Kshamyatam, I should not be using this time for this. But such a beautiful thing, Mahodaya, you are doing. And I get inspired, and for it is our journey to involve and share our journey. I know we are a minority, because the whole world is chasing money and comforts, getting rid of anything that gets in the way, including elders and children also. So it's our job. We're a handful of people. Handful of people we are. But you know what? Eventually, maar khake sab idhar hi aayenge.
Aana hi padega.
Aana hi padega. But why maar khao? That's the journey.
That's what. There are two roads, madam. One is we ourselves willingly opting this road. Otherwise, as you told, maar khake idhar udhar scratch hoke. Then finally, we will have to end up in this road only. Knowing pretty well that we have to land up in this road, why unnecessarily scratches and bruises and all that?
And so much pain. Not only pain. To ourselves, to so many things. To plants we cause pain. To chicken we cause pain. To wildlife we cause pain. To water we cause pain. To air we cause pain. Prithvi itself, our own mother, we cause pain. Why? That pain is you only, because you are that mother, you are that water, you are that air. You think you are causing pain to somebody else, that somebody else is also you, Krishna says. See, we cannot live in isolation. We cannot. It's not our sabhava, we will not survive. This I-ness cannot survive in any form in isolation. We have to be totally dependent on everything in the cosmos. Total dependence means what? If my heart, if I have to depend on my heart and lungs and liver and bones and skin and eyes, the same dependence only is there outside of the body. But the small-minded, two shlokas I would like to sing. Please look it up. Ghrishtam ghrishtam punarapi puna chandanam charugandham chinnam chinnam punarapi puna Svadu chai veshtu kandam Dagdham dagdham Punarapi puna Kanchanam kantavarnam Pranantepi Prakriti Vikriti Jayate Notamanam Om Swayam ko ghis ghis kar खत्म होकर चंदन की लकड़ी क्या देती है दुनिया को?
सुगंध
सुगंध गन्ना गन्ना खाते ना हम लोग, शुगर केन गन्ना। गन्ना स्वयं को स्वयं चब जाता है, चब चब कर वो दुनिया को क्या देता है? मिठास।
मिठास
मिठास देता, अंदर उसमें कुछ नहीं बचा, वो गन्ना नहीं बचा, वो तो अब कंपोस्ट बचा या कुछ भी नहीं बचा, उसको कोई नहीं देख के बोलेगा गन्ना है। चंदन एक बार पिस जाएगा तो उसको कोई नहीं देख के बोलेगा ये चंदन की लकड़ी है। दगधम दगधम, सोना जल जल के निकलता है, जलने में सोने से क्या होता है, उसकी अशुद्धताएं जलती हैं, अशुद्धताएं जलाने के लिए सोना खुद जलता है। तब उसमें सोना सुवर्ण निकलता है, कांचनम कांत कांत, उसमें सुंदरता निकलती है। प्राणान देपी, प्राण भी हम लोग के वैसे ही हैं, जब प्राण खत्म हो जाते हैं, जब प्राण स्वयं नहीं बचते, प्राण अभी क्या मृत्यु क्या बोलते हैं हम लोग, जब प्राण खत्म हो जाते हैं, है ना, जब प्राण स्वयं खत्म हो जाते हैं तब क्या निकलता है हम लोग का, तब अकल आती है, ओ ये भी नहीं पकड़ना था, इसको ऐसा नहीं बोलना था, ये नहीं करना था, दुनिया में सिर्फ प्रेम ही तो है, आखिरी प्राण में निकलता है। प्राणांतेपि प्रकृति विकृति जायते नोत, जैसे वो जाता है, उत्तमम हम लोग का सबसे जो उत्तम पुरुष की बात होती है, तो उत्तम पुरुष है चुपते
मैं,
देन हाउ मैं
टू अलग टू द इंग्लिश फर्स्ट पर्सन,
इंग्लिश फर्स्ट पर्सन, किंतु इच्छुकते किम, व्हाई इज इट कॉल्ड उत्तम, लाइक आई एम द बेस्ट,
the best.
I could only understand that after listening to your classes that you say our behavior and our character should be the best, we should show that as we should lead, give us be as an example to others. That's why it is uttama purusha,
uttama highest behavior, your highest self should be coming out only, eva no other self. It is why it is Uttama, always Prerna Vachaka. It is giving Prerna all the time, saying, who is Uttama? Oh. See, you cannot call anybody else Uttama Purusha. Only yourself. That means, there's also Sanskrit. See, by grammar itself, it is teaching you, you cannot expect your child to behave the best, your husband to behave the best, your wife to behave the best, your teacher to behave the best, your friends. You cannot expect. Because they are not Uttama Purusha.
Actually, Bhagini, I got this doubt when we are talking about Uttam Purusha and Pratham Purusha and all. Why we are giving, if there is no self-importance, why it is said like Uttama? For so now I understood when you are talking about this. Thank you.
Thank you. No, me no, Bhagini.
Dhanyavad, Bhagini.
No, not me no, Bhagini. It is in, this is all of our roots, Bhagini.
Yes, Bhagini, but I came to know only because of you, so I would say that you are my guru now.
Nobody is guru, I am. I myself have a long way to go. Long way to learning. So much to learn. So much I don't know. So much I don't feel. Moments of clarity only I have. Otherwise, I also live in this confusion. No, nobody is guru. But Bhagini, all this is there in all our languages. And you know what grammar does? So I know sometimes people feel, why you have to study grammar? Oh, so hard. I don't know. I skipped my English grammar classes. I hated it. I hated Hindi grammar. Understood. Actually, the truth is, other languages, grammar is not inspiring. I have also tried. 3 years I did French. Then English, of course. Then I taught Hindi. Can you imagine me teaching Hindi at the university? I had to relearn everything. Not my training. My training is an ecologist. I'm a wildlife ecologist by training. And I'm an anthropologist by training, cultural anthropologist, so-called training, whatever that means. Now I think it is useless because I don't care for degrees anymore. I have 5 degrees. Who cares? No, but none of those matter. What matters is Sanskriti. What matters is how your thinking happens. How does thinking happen? Whether you know it or not, whether you like it or not, whether you believe it or not. It is wired in the grammar of the language you use. End of story. Does it mean we have to understand grammar? No. Simply, if you are speaking Sanskrit from childhood because your mother parents spoke it, then you never have to understand, go to grammar class, no? Our mother tongue, we never have to go to grammar class, no? No child says, mummy, which conjugation you use? No, they understand. For usage, we don't need to understand, study grammar. But, because we don't live in a Sanskrit environment, very few people speak Sanskrit, then that grammar cannot be learned simply by hearing, because everybody is only speaking Telugu or Malayalam or Marathi or Hindi or now Khichdi, everything is Khichdi. So, as adults, when we are learning this Sanskrit Bhasha, I am so grateful that you come to class. I am so grateful that you are interested for whatever reason you came here. But however dry my grammar classes might be, I am trying to say how important it is. As adults, we don't accept a new language without understanding it in our limited reasoning. And now all our reasoning is very limited. Mine too, Bhagini. Bhaginyo. Apicha Mahodaya. Very limited, because we are stuck in our own belief systems. Oh, this has to be like this. If this is like this, this has to be like this. This kind of thinking, very limited. So, as adults, we are learning a new language. Just, I have one request. Every day, you should listen. Don't listen to this class if you don't want to, again and again. Boring, same thing. You listen to any form of Sanskrit every day, at least a few hours. Even if you do it while you are doing dishes, while you are cleaning, while you are cooking, going for a walk. Background mein laga dijiye aap. Some chanting, Gita chanting, some bhashanam. You don't understand. You can find online. This story is being narrated, Panchatantra in Sanskrit. Somebody is sitting and reading to you. Put it on in the background. Let it make no sense to you. You know what? Your brain, your higher intelligence will pick it up faster than your reasoning will. So it's very important not to come once a week to this class alone. Will not do it. After a few months, you'll say, oh my God, I've been learning for so long. All I can say is, how are you? What use is that? No. You have to make it more immersive. You have to let it enter your head. put it on when you are lying in bed, you put it on and go to sleep. Of course, your husband or wife will complain or something. Put your earphones on, half an hour you listen, turn it off and go to sleep. Anything, anything in Sanskrit. Sambhashanam is okay, conversation is okay, story reading is okay, chanting is okay, some pravachan somebody is giving in Sanskrit is okay. Please try that, everybody, Sarvibhya. Try that. It will make all the difference. You will no longer need to be told everything. It will just soak in you like a sponge. And it will start coming out slowly, slowly. Without you thinking. You know, a child is quiet for a very long time before they start actually making sentences. Every mother knows that. Every parent knows that. 2-3 years, children have no real things to say. Hoo hoo, ba ba, bi bi, ke ke, mama. Small, small phrases they'll use. And then all of a sudden sentences come, no? Full conversation comes. That's how, because it has been brewing inside. That's why. So, ghrishtam, ghrishtam. Keep at it. Lage raho, Munna bhai. Astu. Okay. So, shashti vibhakti rupam sambandha eva. Aham ekam ekam prashna prichhami. Astu. Mahesh Mahodaya. Bhavatah parshve kim asti?
Mama parshve pustakam asti.
Ichukte Mahodaya, bhavatah ichukte?
Bhavatah is you.
No, no.
Shashti Vibhakti, association with me.
Aap.
Aap. Mere paas kya hai?
Bhavatah iti padam, shashti vibhakti rupam padam. Vadatu Mahodaya.
Bhavatah padam iti shashti vibhakti rupam.
Shashti vibhakti rupam. Ichyukte sambandhah.
Ichyukte sambandhah.
Bhavatah parshve. Parshve ichyukte?
Pas.
Kintu? Vibhakti rupam.
Saptami vibhakti.
Sanskrit bhashayam vadatu Mahodaya.
Parshve padam iti saptami vibhakti rupam.
Asti. Uttamam.
Asti.
Sundaram, sundaram. Asti. Bhavatah parshve kim? Kim Mahodaya iti padam?
Kim yani kya?
Sanskrit bhashayam vadatu Mahodaya.
Kim api
kim iti padam napum sakalinga
kim padam iti napum sakalingam prashnavachaka
prashnavachaka ekavachanam
ekavachanam
uttamam kim bhavatah parshve kim asti asti mahodaya
asti हिंदी में बता सकता हूँ संस्कृत में मैं सोच रहा हूँ कैसे बता अस्थि यानी है संस्कृत भाषे
संस्कृत भाषायाम पुरुष कहा
प्रथम पुरुष
अपि च वचन कहा
वचन एक वचन एक वचन
एकवचनम् प्रथमपुरुष एकवचनरूपम् अस्ति
प्रथमपुरुष एकवचनरूपम् अस्ति
अस्ति अस्ति इत्युक्ते
अस्ति इत्युक्ते
भूवि
भूवि
भूवि अस् धातु
अस् धातु
अस् धातुतः अस् धातुसे अस् धातुतः
अस् धातुतः
उत्तमं धन्यवादः महोदय
अस्तु
शशिकला भगिनी भवत्याः पार्श्वे किम्
मम पार्श्वे कूपे जलम् अस्ति
कूपे जलम् अस्ति सुन्दरं भगिनी एकमेकं पदं स्वीकृत्वा किञ्चित् पदपरिचय वदतु भगिनी कृपया
मम उत्तमपुरुष एकवचनम्
उत्तमपुरुष भगिनी मम इति संज्ञापदम्
संज्ञापदं करेक्ट् करेक्ट् अहम् उत्तमपुरुष एकवचनं संज्ञापदम् और्
उत्तम न अत्र अत्र उत्तमपुरुष न भगिनी उत्तम मध्यम अपि च प्रथमपुरुष धातुपदं धातु धातुपदे योजनीयम् एव क्रियापदं योजनीयम् एव ओन्ली फोर् क्रियापदम् ओन्ली फोर् क्रियापदं वी हेव् दोस् नौन्स् वी डोण्ट् यूस् दोस् qualifications what do we use vibhakti rupam
okay okay kriya padam will become parshve asti
no astu ek nimisha bhagini bhagini punah shunotu bhavatyah parshve kim asti iti vakye kriya padam kim उत्तमं सुन्दरम् अस्ति एव ओन्ली अस्ति देर् इस् नो अदर्
नो अदर् क्रियापदम्
अस्तु कर्ता किं
कर्ता इस् द सब्जेक्ट् रैट्
कर्ता
सब्जेक्ट् इस्
कर्ता अत्र नास्ति किं किं
किम्
एव किम् एव किम् इति प्रथमविभक्ति नपुंसकलिङ्गरूपं पदमस्ति वा प्रश्नवाचकपदम् अस्ति
वा
किम् अस्तु किम् अस्ति लघुवाक्यं लघुवाक्यं किम् अस्ति किम् इत्युक्ते सब्जेक्ट् सब्जेक्ट् अस्ति इत्युक्ते वर्ब्
ओके
अस्ति वा
किम् अस्ति अहम् अस्ति
किम् अस्ति अहम् अस्ति किन्तु
अहम् अस्मि सोरि अहम् अस्मि
अस्तु
अहम् अस्मि
यदि किम् अस्ति अहम् अस्मि अस्तु किन्तु अत्र भवत्याः भवत्याः इति पदस्य मूलं किम् वेर् डस् दिस् वर्ड् भवत्याः कम् फ्रोम्
भवत
भवती इति प्रथमविभक्तिरूपं भवती भवती वदतु आप् बोलिये भवती शृणोतु आप् सुनिये भवती अस्ति आप् हैं अस्ति वा किन्तु तत् पदस्य षष्टिविभक्तिरूपं किम्
षष्टिविभक्ति
कोऽपि जानाति वा
भवत्याः
भवत्याः इति षष्टिरूपं पदम् इत्युक्ते किम् इत्युक्ते आप का के की जब आप स्त्रीलिंग है तो आप जब स्त्री आप जब स्त्रीलिंग है तब ओनली देन सो भवत्याः इति षष्टि विभक्ति रूपम अस्ति इट इज नॉट अ उत्तमा और अ मध्य और पुरुष पुरुषस ओनली गो फॉर क्रियापदम एंड विभक्ति रूपस ओनली गो फॉर नाउन्स अवगतम
ओके ओके And so, what about numbers, the Bahuvachanam and all that? It will be for Kriyapadam?
All. But Vibhakti okay. Rupa has three and Kriyapadam has three.
Okay.
This okay. is a fundamental. See, that's what I'm saying. When we learn as adults, somebody has to explain this. But if you learn as children, they get it. And nobody has told them this is a Purusha thing is going on, some Vibhakti thing is going on, some Vachana thing is going on. Yet they speak. 3-4 saal ke bache, look at how beautifully they speak. Sab kuch bol lete. Nobody has given them single grammar class. Thank God. So this is what I'm saying. As adults, we have to be told. And please don't ever feel shy in asking at any point. We are all adults. We are all bound by our habits of reasoning. We are no longer that open children. Child mind
what,
is gone.
What is the word for Dvivachanam for Bhavati?
Bhavatyau.
Bhavatyau.
Bhavatyaha. Many Bhavatis are there. Aap log? Aap tog striling asti chet? भवत्यः आप दो स्त्रीलिंग अस्ति चेत् भवत्यौ भवती भवत्यौ भवत्यः प्रथम
भवान् इज आल्सो द सेम वे इज इट भवौ इज इट
भवान् भवन्तौ
भवन्तौ
भवन्तः
ओके
आप सब आप लोग पुल्लिंग पुंलिंग अस्ति चेत् भवन्तः द्वयोः पुरुषः अस्ति चेत् भवन्तौ एकमेव भवान् भवान् इति पदस्य षष्टिविभक्तिरूपं किं कोऽपि जानाति वा
भवतः
भवतः भवान् इति पदस्य षष्टिविभक्तिरूपं भवतः भवतः इत्युक्ते किम्
Your masculine.
But in I don't know other Indian languages. Please correct me. But in Hindi, ka ke ki object ka gender leta hai. You understand? Mera ladka, meri ladki. Kintu Sanskrit bhashayam iti naasti. Sanskrit bhashayam speaker kaun hai, uska gender jayega. या सब्जेक्ट कौन है उसका जेंडर जाएगा नॉट ऑब्जेक्ट एंड आप लोग की भाषा में आई डोंट नो कैन एनीबडी गिव मी लाइक मराठी व्हाट इज इट और तेलुगु व्हाट इज इट और समथिंग कन्नड़ा काके की आपका बेटा आपकी बेटी हाउ यू से इट इन कन्नड़ा
इन तमिल वी डोंट हैव एक्चुअली जेंडर इन
Tamil doesn't have gender.
Even Telugu also, beginning. We no don't gender. Have in Telugu also. No.
Gender
For you, gender. You don't. No, yeah, gender yeah. is there, but you, we say like, noun, your yeah. children is same.
No, yeah. if aap, you say like this, my son and my daughter in Telugu, say it.
In Kannada, it is nan udigi, nan udiga. So it is no gender difference than we
yeah. in there that is no word. Gender difference in Tamil also.
Tamil, yeah.
Yeah.
No gender difference in which part of the word? In which part of the
Purusha doesn't change.
Ah,
the gender.
उत्तमम् उत्तमं तदेव संस्कृतभाषाया that only you don't have to relearn then see hindi speakers have to relearn this
yeah
in hindi mera ladka meri ladki asti va kavita bagini
yes yes in gujarati and marathi also in gujarati gujarati it is tamaro chokro tamari chokri in marathi it is tumcha mulga tumchi mulgi
astu astu dhanyavada bagini bagini astu so then hindi marathi and gujarati maybe rajasthani also people have to relearn and I think bengali mein to gender itself is not there whole language no gender is that true I think anyway so bhavatah ichuke yadi purusha asti chet aap tadanantaram aapka keki भवतः भवत्याः इत्युक्ते यदि स्त्री अस्ति चेत् अस्तु किञ्चित् ध्वनिः आगच्छति कस्यचित् गृहे अस्तु 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 शशिकला भगिनी भवत्याः पार्श्वे पार्श्वे इति भवत्याः इति पदस्य किमपि वदतु परिचय विषये भगिनी वदतु भवतः
मम पार्श्वे
भगिनी मम प्रश्नः शृणोतु कृपया भवत्याः इति पदं स्वीकरोतु अपि च इति पदस्य विषये किमपि वदतु
नो आई डोंट गेट इट
इति पदम् इति पदं स्वीकरोतु अंडरस्टैंड इति पदं दिस वर्ड स्वीकरोतु इसको आप लीजिए
किस वर्ड भवान भवति
भवत्याः
भवत्याः ओके
स्वीकरोतु यू अंडरस्टैंड
यस यस भवत्याः इज माय
पदम यू अंडरस्टैंड वर्ड
या दैट मींस इट इज द षष्ठी विभक्ति ओके
नो माय नो लिसन ओनली टू व्हाट आई एम सेइंग डोंट जंप राइट नाउ जस्ट स्टे वेयर वी आर ओके वन स्टेप एट अ टाइम सो व्हेन आई से भवत्याः इति पदम स्वीकरोतु इत्युक्ते इस शब्द को आप लीजिए
भवत्याः
भवत्याः को आप लीजिए तदनन्तरम् उसके बाद इति पदस्य उस पद काके की परिचय विषये परिचय इत्युक्ते भगिनी परिचय इत्युक्ते लैक्
अण्डर्स्टाण्ड् रेकग्नैज्
लैक् रेकग्नैज्
इण्ट्रोडक्षन्
लैक् ओके भवत्याः नाम किं देट् कैण्ड् आफ़् थिङ्ग् ओके
सो इति पदस्य विट् मीन्स् आफ् बिलोङ्गिङ्ग् दिस् इस् शब्द को स्वीकरोतु तदनन्तरं परिचय विषये परिचय के विषय मे विषय इत्युक्ते भगिनी टापिक्
ओके
टापिक् विषय मे किञ्चित् वदतु कुछ बोलिए किसके बारे में बोलिए भवत्याः इस पद के बारे में कुछ
बोलिए
परिचय के विषय विषय में बोलिए
should I say it means that it is taken from bhavati as the dhatu is that what you're saying
no dhatu na prathama you can call, you can say pratipadikam mula you can just say mula or
mula okay bhavati is a mula pada
bhagini ek nimesha simply you say simply you can say prathama vibhakti rupam bhavati because everywhere prathama vibhakti is given.
Okay, bhavati.
So then you can say, of the word bhavati, this is the shashti vibhakti. Sanskrit.
Okay.
You understand? That tells me something about this word. Where bhavati came from, that is not a question. That's not out of this context currently.
Okay.
But bhavati is padam ka ye shashti vibhakti ek vachana rupa hai. This you have to try to say. This gives me an introduction of the word bhavatyah. Astiva?
Bhavati
shabdasya shashti vibhakti eva. But shabdasya chukte shashti vibhakti. Shabd ka.
Shashti, yeah. Bhavati shabdasya shashti vibhakti
rupam
bhavatyah
asti.
भवत्याः अस्ति.
सुन्दरं सुन्दरं भगिनि, धन्यवादः. सुन्दरं भवत्याः पार्श्वे किं, तदनन्तरं भवती उक्तवती किं, मम पार्श्वे जलम् इति वदति न, पुनः वदतु.
मम पार्श्वे कूपस्य नो कूपे जलम् अस्ति.
कूपे जलम्. ओके. मम इति पदस्य परिचयविषये किमपि वदतु. इत्युक्ते किम्? What does my question mean?
From this sentence, can you recognize the vishaya?
Parichaya chukte, not recognize, introduction.
Introduction. Oh, parichaya. Introduce the sentence. Okay.
Na. Parichaya vishaye chukte. In the topic of an introduction, in the topic of introducing, say something about the word mama. Mama, listen, punah shrunotu bhagini. Chinta mastu, kimapi chinta mastu, kevalam shrunotu. That is, tena eva, because of that purpose only I am here. It's my job. So don't think, oh, I'm not getting it. That will block your learning. Simply you listen like a child. Astu. Mama iti padam swikritva swikarotu. Please accept this word. Tadanantaram uske baad iti padasya parichaya vishaye किमपि वदतु, कुछ बोलिए मम इति पदस्य विषये. वदतु भगिनी, अवगतं वा भगिनी? अस्ति वा भगिनी?
नहीं, इट लुक्स लाइक शी हैज लेफ्ट द मीटिंग, शी इज नॉट इन द लिस्ट.
अस्ति वा?
Her name is not listed.
Asu. Shivarupa bhagini vadatu mama.
Bhagini. Bhagini, can you repeat once again the question?
Bhagini. Mama iti padasya swikritva parichaya vishaye kimapi vadatu.
Okay. मम पार्श्वे उत्पीठिका अस्ति.
न भगिनी, मम प्रश्नः कः? मम इति पदस्य विषये किञ्चित् वदतु.
ओके. मम मीन्स् इट्स् उत्तमपुरुष
मम कोऽपि जानाति वा, साहाय्यं करोतु, अस्तु कविता भगिनी साहाय्यं करोतु किञ्चित्.
You have just mentioned sometime back, from that I'm saying it is a samya pada.
Samya pada.
It should be kim kavita bhagini? Samya pada it should be kim?
Means it is a noun, it is not a verb, and hence it will not have any vibhakti or the purushas.
A noun will not have vibhaktis bhagini. Kinchit chintayatu.
Okay, it will have purusha.
Nouns will take vibhakti.
No. Okay, mama iti sangna padam, that means mama is a noun. Right? And only kriya padams have the vibhaktis.
No.
That
no,
much?
Viparit bhagini.
Opposite. Okay. Then I'm opposite. Not saying it will...
Asu. Chinta mastu. Sudha bhagini vadatu. चिन्ता मास्तु कविता भगिनी, वदतु सुधा भगिनी.
हां भगिनी, मम इति पदं संज्ञापदम्
मम इति संज्ञापदम् उत्तमम् उत्तमम्. मम इति पदं पुरुष स्वीकरोति किम्? पुरुषः इति स्वीकरोति किम्? वदतु.
इट् वोण्ट् टेक् भगिनि.
वाट् विल् इट् हेव्
लैक् पुरुष लैक् उत्तमपुरुष अण्ड् आल् ऐ थिङ्क् मम पदम् इट् वोण्ट् टेक्.
हा, मम इस् अ नौन्. नौन् विल् हेव् विभक्ति रूपस् ओन्लि. क्रियापदं विल् हेव्
पुरुष. सो मम इस् ए नौन्, सो इट् वोण्ट् टेक् एनी पुरुष फार्म्.
करेक्ट्. द वर्ड् इट् सेल्फ् विल् नेवर् हेव् अ पुरुष फार्म्. इट् विल् ओन्लि हेव् विभक्ति एण्ड् वचन. अस्ति वा?
आं भगिनि.
विभक्ति मीन्स् वाट्? विभक्ति इत्युक्ते किं? विभक्ति मीन्स् विभक्ति लैक् दिस् वट् यू से. सो फार् इङ्ग्लिश् स्पीकर्स् इन् द क्लास् ऐ विल् गिव् एन् एक्साम्पल्, देन् ऐ विल् डू इट् इन् हिन्दी आल्सो. विभक्ति मीन्स् दिस् वित् मी, ही इस् वित् मी, शी मेड् इट् फार् मी, अगेन्स्ट् हिम्, मैन्, in me. See, these what we call in English prepositions. What are prepositions? In, for, with, from. These are all English prepositions. Similarly, in Hindi, for Hindi speakers, what do we say? मेरा,
मेरे,
उसके लिए.
सॉरी भगिनी, आई जस्ट गॉट कट ऑफ कंप्लीटली, आई जस्ट गॉट लॉग्ड इन अगेन.
चिंता मास्तु भगिनी, चिंता मास्तु.
आई एम सिटिंग इन पुणे इन अ होटल, सो आई जस्ट गॉट कट ऑफ.
अस्तु. पुणे, देयर इज अनदर स्टूडेंट इन पुणे भगिनी, इन आवर क्लास, नितिन महोदय.
इज इट? हु इज दैट?
Nitin Mahoday is not in this class, maybe. Other class.
Maybe he's in the Tuesday class, no?
Maybe. I get confused. Astu. No. So
Kshamitam Bhagini. I am leaving the meeting, madam.
Chinta Mastu Mahoday. Namaskaraha.
Namaskar. Dhanyavad.
Dhanyavad. Astu. So, prepositions in English is what? From, with, against, for, to, in, on, correct? So and so. So many are there for English speakers in the class. Hindi speakers, uske liye, usko, usne, uske saath, uske dwara, uska, uske liye, usme, What do they give? They give the relationship of that noun with whatever it is that is the context. Like uske liye, like if I said mata ne ladka banaya, like no, mata ne ladke ke liye banaya. You see what I'm saying? This ke liye is a, that is a vibhakti rupam in Sanskrit, except Sanskrit mein the noun and the ke liye and the ko and the ne and the ke saath and all of that becomes one word, not separate words. Hindi mein we will have separate words. Kitab ko dekho. Sanskrit bhashayam pustakam pashyatu. One word, pustakam, means kitab ko. Pustakasya means pustak ka, pustak ki, pustak ke. Pustakat means pustak se. Pustakena, pustak dwara. Pustakaya, pustak ke liye. Pustake, pustak me. See how that works. I'm not that you need to remember all these forms, but understand that vibhakti takes, vibhakti rupas are the words in Sanskrit that give that meaning. And it is all one word. So the noun word is there and the ending tells you that what is going on. Similarly in English, so for example in English if I say in the book, Hindi mein bolungi kitab mein, Sanskrit bhashayam pustake. One word in Sanskrit, two words in Hindi, pustak mein. English, in the book, three words. You see how that works? Everybody avagatam va?
Ram bhagini.
Kavita bhagini avagatam va?
We get it when we read it, Bhagini, we are not able to remember it. That's the problem.
No worries. But, so, when Sanya is there, then Vibhaktis will come. When Dhatu is there, verb is there, Kriyapadam is there, then Purushas will come. That's all. There are two things you have to remember here. That's all. Astu. Astu. Mama iti padasya parichaya rupam kimapi vadatu. Shiva rupa bhagini vadatu.
Bhagini. Mama is samya padam ekavachanam.
Ekavachanam, astu. Vibhakti rupam kim?
Is shashti vibhakti bhagini.
Apicha kasya padasya Moolarupam asti. Uska moolrup kya hai? Mama ka. Moolrup ichukte? Prathama vibhakti rupam kim?
It's a bhavati.
Bhavati na. Bhavati ka kya pane ka?
Aham.
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 Uttamam. Aham. Main. Main ka banta hai? Mera. Meri. Shashti Vibhakti, Mera, Meri. Uttamam. Mama. Uttamam. Kavita Bhagini, Parjve. Iti padasya, Parishaya Vishaye, Kimapi Vadatu. Parjve.
First I'll say it and try to understand. Parjve means?
First you repeat the sentence, the question only in English or Hindi.
Okay, sorry.
I understand that you understand.
Please say it once more. I'm
sorry. Parjve iti padasya parichaya vishaye kimapi vadatu.
Parjve iti padasya parichaya kimapi vadatu.
हाँ,
so पार्श्वे शब्द के संबंध में कुछ तो परिचय देते हुए कहिए.
हाँ, उत्तमम, सुंदरम, सुंदर रीतिया उक्तवती. सुन्दरम्. अस्तु अधुना वदतु उत्तरम्.
पार्श्वे इति पदं, फर्स्ट लेट मी अंडरस्टैंड, आई हैव नॉट अंडरस्टूड. सो पार्श्वे मीन्स पास में होना, सो दैट मीन्स के ये क्रियापद हुआ क्योंकि ये प्रेपोजिशन के साथ है, संबंध बता रहा है. पास में
भगिनी क्रियापदम इज एक्शन वर्ड, करता करना,
राइट, वर्ब
करो, इज नॉट अ वर्ब. पार्श्वे जस्ट इज, नो, इज नॉट अ वर्ब, देयर इज नो एक्शन गोइंग ऑन, इज नॉट अ क्रियापदम, इट इज अ संज्ञापदम,
राइट, सॉरी. सो नाउन का रिलेशनशिप दे रहा है कि वो किधर है पोजिशन में, सो पास में है, सो इट इज अ नाउन एंड पास में. सो आई एम नॉट टू कॉन्फिडेंट बट फोर्थ आएगा मुझे. आई एम नॉट कॉन्फिडेंट ऑफ विभक्ति. अच्छा सेवेंथ, ओके.
तो
पार्श्वे इति संज्ञा पदम एक वचन,
एक वचन
सप्तमी, एक वचन
रूपम
सप्तमी विभक्ति रूपम
अस्ति.
सप्तमी विभक्ति रूपम सप्तमी अस्ति
न, सप्तमी विभक्ति रूपम अस्ति, इट इज द सेवेंथ
विभक्ति फॉर्म ऑफ, सेवेंथ फॉर्म ऑफ विभक्ति
इज अस्ति, तदेव
अस्ति.
प्रथम विभक्ति रूपं पार्श्वम् इति, यु डोंट नो, सो ऐ एम टेलिंग यू, पार्श्वम् इति प्रथम विभक्ति रूपं एकवचन, जस्ट लाइक गृहम बिकम्स सप्तमी, व्हाट विल इट बिकम भगिनी? गृहम इति प्रथम विभक्ति रूपं अस्ति चेत, अगर गृहम प्रथम विभक्ति, गृहे ग्रहम
फ्रॉम पार्श्वे, आई जस्ट डिड्यूस दैट.
उत्तमं भगिनी, तदेव तेन अभ्यासेन एव सर्वम अवगतम्. उस प्रकार के अभ्यास से ही आएगा. दैट इज व्हाई आई एम डूइंग अगेन एंड अगेन. चिंता मास्तु, किमपि चिंता मास्तु. अस्तु, सो ग्रहम इति प्रथम विभक्ति एक रूपम अस्ति, अपि नपुंसकलिंग पदम अस्ति, नपुंसकलिङ्गं पदमस्ति. गृहं गृहे, पार्श्वं पार्श्वे, सप्तमी विभक्ति एकवचनरूपम् अस्ति. इत्युक्ते किं? पास् मे, सप्तमी मे. सप्तमी माने क्या? मे और पर, कोई भी चीज मे और पर. पुरुषे इत्युक्ते या तो पुरुष के अंदर या पुरुष के ऊपर. ग्रहे इत्युक्ते या तो घर में या घर पर. पुस्तके इत्युक्ते किम्?
पुस्तक में या पुस्तक के ऊपर.
उत्तमम् उत्तमम्, अवगतम वा?
के मतलब हम जैसे बोलते हैं कि आप घर में बैठे हैं, पर हम हिंदी में ऐसा भी बोलते हैं कि वो घर पर रख कर आई हूँ मैं.
तो
बोथ मीन द सेम, दैट घर के अंदर. और पर इज आल्सो यूज्ड हियर एज ऑन टॉप ऑफ इट, मतलब पक्षी घर के ऊपर बैठा है. सो दैट ऑल दीज विल कम हियर सेवेंथ.
उत्तमम उत्तमम उत्तमम. खगः ग्रहे अस्ति. खगः चिड़िया, खगः ग्रहे अस्ति. अब इस वाक्य से हमको ये नहीं मालूम कि चिड़िया घर में है कि घर पर है. तो इफ यू वांट टू स्पेसिफाई देन वी कैन डू अदर थिंग्स, बट राइट नाउ जस्ट अंडरस्टैंड दिस मच. अन्य विषय आई डोंट वांट टू कॉम्प्लिकेट. अस्ति वा? उत्तमम उत्तमम.
धन्यवाद.
अस्तु सुधा भगिनी.
हां भगिनी.
भवत्याः पार्श्वे किम्?
भवत्याः पार्श्वे किं? मम पार्श्वे लेखनी अस्ति.
मम इति पदस्य स्वीकृत्वा परिचयविषये किमपि वदतु.
मम इति पदं षष्टिविभक्ति रूपम्
अस्तु
एकवचन षष्टिविभक्तिरूपम्
उत्तमम्
पार्श्वे इति पदम् एकवचन
भगिनि एकनिमिषं मम प्रथमविभक्तिरूपं किम् अहं पदस्य षष्टिविभक्तिरूपं मम वदतु
अहम् इति पदस्य षष्टिविभक्तिरूपं मम
उत्तमं सुन्दररीत्या वक्तवती अग्रे
पार्श्वे इति पदम् एकवचनं सप्तमीविभक्तिरूपम् अस्ति
उत्तमं किं न एकनिमिष भगिनि एकनिमिष पार्श्वे प्रथमविभक्तिरूपं किं
पार्श्वं इति पदस्य षष्टिविभक्तिरूपं सप्तमीविभक्तिरूपं पार्श्वे
एकवचनं उत्तमम् अग्रे
किम् इति पदं नपुंसकलिङ्गं प्रश्नवाचक एकवचनपदम्
उत्तमं सुन्दररीत्या उक्तवती अस्ति
प्रथमपुरुष एकवचन पदम्
धातु अस् धातुरूपम् अस्
धातुरूपम् अस्
अस् धातुतः प्रथमपुरुष एकवचनरूपम् अस्ति वदतु भगिनि
अस् धातुतः प्रथमपुरुष एकवचनरूपम् अस्ति
उत्तमं सुन्दररीत्या उक्तवती धन्यवादः भगिनि
धन्यवादः
शैलजा भगिनी
Sorry, if I can, I was actually clapping. This was very well.
Uttamam. Astu, Shailaja Bhagini, agachatu.
Bhagini, it is all bouncing off for me. I don't know how Sudha Bhagini has told now.
Chintamastu. Mandam. Mandam. Slowly. Whatever each one gets. Not everybody is not a competition, not a race. Don't feel like intimidated. We each get what we are ready to get. You know, one thing I'll say. Wisdom has always been around us all the time. And yet, so many times it knocks on our door. When do we get it? When we are gray and old with one tooth. Correct?
Spagini.
So it is always around. We each get it when we get it. That is why the beauty of Sanskriti says time is not linear. It's another function. See, this is what makes competition today's life. Everything is competitive. I have more money than you. I have a higher status than you. I have better children than you. I have a better car than you. Why? Because it is linear. The concept of time in English is linear, means it is a single line going from beginning to end. Where is the beginning? Nobody knows. Where is the end? Nobody knows. But somehow they believe, the language believes it is linear. Samskrita bhashayam iti tu nasti. In Samskrita bhasha, it is time is circular. In a circle, can anybody tell me where is beginning, where is end? Who is ahead of anybody? Can anybody tell me? Everybody is equidistant from the Ishvara in the circle. Circle itself is Ishvara. We are all equidistant from it. All of us. So never feel like, oh my God, I'll never be able to do like this. No. Chinta mastu. Tadrisha chinta samskriti bhashayam mastu. In Sanskrit bhasha, the Sanskriti that we get that kind of thinking is not there. That is why people are very content, you know. How do you think hundreds of thousands of years this land of Bharata, very content people. That is why rishis were born. How can you have a rishi born when it is a war-torn and competitive society? I mean, some occasional rishis will be there. But as a culture, they were born. Like hundreds of them, thousands of them. It was a culture. It was a tradition. How it became tradition? Because of the circular thinking. Equidistance. Nobody wins. Nobody loses. We each take whatever we take. When we get it. So, chinta mastu bhagini. Tate tadrisha chinta kimapi avashyakam nasti. Astu Shailaja bhagini. Bhavatyaha parshve kim?
Mama parshve kalam asti.
Uttamam. Mama parshve. Mama iti padasya parichaya vishaye kimapi vadatu.
Mama iti padasya sanyapadam ekavachanam shashti vibhakti.
Uttamam. Asti. Shashti vibhakti rupam asti.
Shashti vibhakti rupam asti.
Astu uttamam. Prathama vibhakti rupam kim?
Aham.
Aham. Uttamam. Aham. Aham iti padasya shashti vibhakti rupam mama. Vadatu.
Aham iti padasya shashti rupam mama.
Tadeva.
Mama asti.
Ekavachanarupam. Uttamam. Mama. Mama parshve. Parshve iti padasya parichaya vishaya kinchit vadatu.
Parshve iti padasya saptami vibhakti ekavachanarupam asti.
Iti padasya na. Parshve iti padam.
Parshve iti padam. Yes, bhagini.
Punah vadatu.
Parshve iti padam saptami rupam ekavachanam
asti.
Padam asti.
Asti. Prathama vibhakti rupam kim?
Parshvam. Parshvam. Gruhe gruham. Yeah, parshvam. I just remember like gruhe for gruhe and gruham.
Tadeva. Yeah. तेना एव उसी रूप से हम लोग मैं भी वही करती हूँ भगिनी दैट इज द वे उत्तमम पुनः वदतु
पार्श्वे इति पदम एकवचनम रूपम सप्तमी पदम अस्ति प्रथमा पार्श्वे पदम प्रथमा विभक्ति पार्श्वम पदम अस्ति
पार्श्वम् इति अस्ति
पार्श्वम् पदम् इति अस्ति
इति अस्ति ये है पार्श्वम् इति ये है अदरवाइज पीपल आर लाइक सो पार्श्वे के क्या करोगी तुम यू नो लाइक व्हाट विल यू डू इति इट इज दिस इज पार्श्वम् दिस इज इट्स नॉट बिकॉज यूजुअली व्हेन यू से वर्ड यू डू समथिंग विद देम मेरे पास आओ बट यू आर यूजिंग वर्ड मेरा मेरे बट यू आर नॉट सेइंग मेरे पास मेरे लिए यू आर सिंपली सेइंग मेरे यह शब्द अदरवाइज पीपल आर एक्सपेक्टिंग अ फुल सेंटेंस नो
यस भगिनी
सो दैट इज व्हाई इति इज अ ब्यूटीफुल थिंग इन संस्कृत
इति इज दिस भगिनी दिस वर्ड या
दिस एग्जैक्टली दिस एक्चुअली इति इज नॉट जस्ट दिस
एग्जैक्टली दिस वन या
एग्जैक्टली दिस विद नो
वी आर 100% श्योर ऑफ दिस या
100% नो चेंज एंड इति इज देयरफॉर यूज्ड एज quotation marks sanskrit okay. bhashayam kimapi punctuation marks nasti kevala virama can you believe that no
so when the no word comma. Itself tells okay
no comma is there no colon is there no semicolon is there no apostrophe is there no quotation mark is there Nothing is there in संस्कृतभाषायां विराम एव ओन्ली विराम एट् दि एण्ड् आफ़् सेण्टेन्स् केन् यु बिलीव् अ लेङ्ग्वेज् सो सो ब्यूटिफुलि डिसैन्ड् नो क्वश्चन् मार्क् इस् देर् नथिङ्ग् नौ इन् दीस् बुक्स् दे आर् स्टार्टिङ्ग् टु रैट् कापिङ्ग् नो नीड्
So the word itself gives us the information about how what how important is that and what does it mean and all things like that, Bhagini.
Iti does it. So
so even for questioning also the kim itself tells us like there is no need of question mark. Okay,
exactly. I mean, why you need to, correct? And sometimes without question also the voice tells you.
Yes.
Like the way it is said, it tells you, no?
Yes, Bhagini.
So, no need to... See, the other beauty of Sanskrit is it is not... It is very, very careful not to be redundant. Redundant ichukte, repeating same thing again and again unnecessarily. Adds confusion only. Sanskrit bhashayam iti tu nasti. See, when you are already saying what is your name, what is already questioned, the question mark at the end is redundant or not? Exclamation mark is redundant or not? Oh, I mean, already the exclamation is done. Exclamation is done. Why you need a mark?
Yes, then.
So, Sanskrit is, that is why it is used in software programming. Can you imagine somebody writing a program and then giving double command for the same action? It will cause what? It will crash. That is why we get glitches. So, very, very beautifully it has been designed. That is why it is called Samskritam. Samskritam ichukte, perfectly put together. Samskritam ichukte, perfectly put together. And seriously, now that I'm studying the grammar and the sutras inside, like how words are formed, the math of grammar I'm studying, and I cannot tell you, every class leaves me completely amazed. Completely, I mean, like completely, like Guru has shown in front of me, like standing there in front of me. Light is there. This is how amazing. It's unbelievable how perfect it is. That's what I'm trying to say. Such a beautiful journey you are on. If you stay with this, you will realize it is your single most beautiful journey, because it brings so much clarity simply because of its own nature. It's not trying to say anything big. I mean, what are we saying? What is near me? There's nothing big in that. But the structure of the grammar only will fix all the unnecessary confusion. Mama Pashve. Agrima, Agre Vadatu Padam Kim Bhagini?
Mama Pashve Kalam Asti.
Kalam Iti Padasya Vishaya Vadatu?
Kalam Iti Padasya Iti Padam Napunchakalingam Ekavachanam Asti.
इत्युक्ते
सोरि भगिनि
इत्युक्ते पदम् इत्युक्ते कलम् इत्युक्ते
कलम् इस् पेन्
पेन् उत्तमम् उत्तमं नपुंसकलिङ्ग प्रथमविभक्ति एकरूपम् एकवचनरूपम् अस्ति इत्युक्ते लघुवाक्यं किं
कला I'm not sure, Bhagini, but...
Vadatu, Bhagini.
Is it kala?
Kalam.
Kalam.
No, so, Laghuvakyam
kalam asti. Sorry, Bhagini. So, I thought that you are asking about dhatu word.
No.
Kalam asti.
Kalam asti. Kutra kalam asti? Mama Pajve kalam asti. कलम् अस्ति कुत्र अस्ति पार्श्वे अस्ति कस्यचित् पार्श्वे कस्यचित् पार्श्वे किसके पास कस्य सि
मम पार्श्वे
कस्य पुस्तकस्य
वाट् इस् दट् वर्ड् भगिनि
कस्यचित् पुस्तकस्य पदस्य See, we use this here ending for yadi pumling asti chet, akaranta pumling asti chet, asya iti ante agachati shashti vibhakti rupe. This comes at the end of a ending pumling shabdas. Kashya, narasya.
Excuse me, sorry.
What
it will be the same for neuter gender also, no? Because the masculine same. And neuter are same except 1, 2 and one more.
No. 1, 2, Eva.
1, 2 okay. Differs and from third onwards it is same for napunchukalingam and pullingam. Is that right, Bhagini?
Uttamam. Dhanyavada Kavita Bhagini. Uttamam. Pumling asti chet, napum sakling asti chet. अस्य इति अन्ते आगच्छति आ जाता है स्य आ जाता है अन्ते अंत में किसमें षष्ठी विभक्ति रूपे रूपे नाउ सी सप्तमी आई एम यूजिंग रूपे लघु वाक्यम कलम अस्ति ना सबसे लघु वाक्यम क्या होगा अस्ति
अस्ति
किम अस्ति
कलम अस्ति
कुत्र अस्ति
पार्श्वे कलम अस्ति
कस्यचित् पार्श्वे कलम अस्ति
मम पार्श्वे कलम अस्ति
उत्तमम् धन्यवाद भगिनी आनन्दज्योति भगिनी आनन्दज्योति भगिनी भवत्याः पार्श्वे
I am not sure on this bhagini
भगिनी चिन्ता मास्तु शशिकला भगिनी पुनः प्रथम शशिकला भगिनी आगच्छतु
लैक् शैलजा भगिनी वाज़् आल्सो यु नो लिटल् लैक् शी वाज़् स्केर्ड् बिफोर् शी स्टार्टेड् बट् शी लिसन्स् टु दिस् रेकार्डिङ्ग् अगेन् शी आल्सो वेण्ट् सो फ्लुएण्ट्लि लैक् टीचर् गाट् इट् औट् आफ् हर्
नो भगिनी दट् इस् आल् बिकास् आफ् यु नो द अवर् गुरु इट्स् आल् कृपा के साथ् लिटल् बिट् I'm just
the guru is grabbing. My guru is same as your guru. Don't worry. Same
Bhagini,
guru.
Bhagini, the main thing about this class is nobody judges you. So even if you make mistakes, you know that they are all here to help. That's why we are so confident in speaking, you know.
And sometimes Aruna Bhagini also comes in this class or not?
No. No, Bhagini.
Astu. Aruna Bhagini has been learning far senior than me.
I think she came once, I think. She was there here for one time.
Elderly lady. She has been learning much many more years than me. But she comes to class and so, you know, I could also feel, oh my God, she knows so much more. And she corrects me when I'm wrong and I am so grateful. Because who says I'm perfect? I'm myself learning only. It's okay, Bhagini. Remember the circle. We're all in the circle.
Yes, Bhagini, I'm trying to catch up, Bhagini.
Chinta mastu bhagini. One more I'll do before you because you came a little bit joined little later. I'll do. Shashikala bhagini agachatu.
Yes bhagini.
Uttamam. Uttamam. Astu. Astu. Bhavatyah paashve kim?
Mama paashve dve pustake santi.
Dve pustake staha.
स्तः करेक्ट् द्वे पुस्तके स्तः
द्वे पुस्तके स्तः भवत्याः पार्श्वे किं भवत्याः इति पदस्य परिचयविषये किञ्चित् वदतु भगिनी
किं पार्श्वे कुत्र अस्ति
पुनः शृणोतु भवत्याः इति पदं स्वीकरोतु तत् पदस्य परिचयविषये किञ्चित् वदतु प्लीज् एक्सेप्ट् दिस् वर्ड्
भवत्याः
Its introduction, in the topic of its introduction, please say something.
भवति शब्द षष्ठी विभक्ति भवत्याः अस्ति.
उत्तमम् उत्तमम्. भवति इति शब्दस्य
शब्दस्य षष्ठी विभक्ति शब्दः भवत्याः अस्ति.
षष्टिविभक्तिरूपं
षष्टिविभक्तिरूपम्
एकवचनरूपम्
एकवचनरूपं
भवत्याः
भवत्याः अस्ति.
पुनः वदतु भगिनि.
भवती शब्दस्य एकवचनरूपं भवत्याः अस्ति.
विभक्तिरूपं भगिनि
षष्टिविभक्ति सोरि षष्टिविभक्ति
पुनः वदतु भगिनि.
भवती शब्दस्य षष्टिविभक्ति एकवचनरूपं भवत्याः अस्ति.
सुन्दरं सुन्दरम् उत्तमं. धन्यवादः.
थैंक् यू. आफ्टर् द थर्ड् अटेम्प्ट् थैंक् यू.
न न चिन्ता मास्तु. थर्ड् फोर्थ् नो कौण्टिङ्ग् भगिनि.
ओके
नो कौण्टिङ्ग् नो कौण्टिङ्ग्. अस्तु अस्तु. भवत्याः पार्श्वे इति पदस्य परिचयविषये किमपि वदतु.
पार्श्वे पार्श्वे इस् सप्तमी विभक्ति आफ् सप्तमी विभक्ति पार्श्वं सप्तमी विभक्तिरूपं पार्श्वे.
पुनः पुनः वदतु एकवा सुन्दरं वाक्य योजयतु.
पार्श्वं तः सप्तमी विभक्तिरूपं पार्श्वे शब्दः अस्ति.
उत्तमं. किन्तु एकवचन
एकवचन पार्श्वं शब्दस्य षष्टिविभक्ति एकवचनरूपं पार्श्वे अस्ति.
षष्टि एव पार्श्वे षष्टिविभक्ति भगिनि.
षष्टिविभक्ति
विभक्ति किं
षष्टिविभक्ति
का विभक्ति पार्श्वे इति विभक्तिरूपं किम्
पार्श्वे षष्टि उल्लिखरे.
न न न भगिनि. पार्श्वे इत्युक्ते
सप्तमी.
पुनः पुनः वदतु.
पार्श्वं सप्तमी विभक्ति एकवचनरूपं पार्श्वे अस्ति.
पुनः पुनः पार्श्वं
पार्श्वं शब्दः
शब्दस्य
षष्टिविभक्ति एकवचनरूपं पार्श्वे अस्ति.
किन्तु तत्तु सत्यं नास्ति भगिनि. इट्स् नाट् सिक्स् विभक्ति
सप्तमी विभक्ति.
पुनः वदतु.
इट्स् गेटिङ्ग् वेरि कन्फ्यूसिङ्ग् नौ. पार्श्वं शब्दस्य सप्तमी विभक्ति एकवचनरूपं पार्श्वे अस्ति.
उत्तमं सुन्दरं. पुनः वदतु.
पार्श्वं शब्दस्य सप्तमी विभक्ति एकवचनरूपं पार्श्वम् पार्श्वे अस्ति.
उत्तमं सुन्दरं सुन्दरं सुन्दरं. भवत्याः किम् इति पदस्य स्वीकरोतु. किञ्चित् वदतु.
किम् किम् अस्ति पुस्तके अस्ति.
उत्तमं. किम् अस्ति पुस्तकम् अस्ति
पुस्तकम् अस्ति.
किन्तु पदस्य विषये
कुत्र अस्ति पार्श्वे अस्ति.
उत्तमम्. किन्तु किम् इति पदस्य विषये परिचयविषये किम्
kim is a question
prashnavachakah shabdah api cha napum sakalingam prathama vibhakti ekavachana rupam it is the first vibhakti singular napum sakalinga rupam of the question prashnavachaka kim
prashnavachaka shabdam napumsakalinga ekavachana
napumsakalingam ekavachana rupam asti uttamam punavadatu
kim prashnavachakah vachaka shabdam शब्दः नपुंसकलिङ्ग लिङ्गम् एकवचनं रूपम् अस्ति
उत्तमम् अस्ति इति पदस्य परिचयविषये किञ्चित् वदतु
अस् धातु प्रथमपुरुष एकवचनरूपम् अस्ति
उत्तमम् अस् धातुतः
प्रथमपुरुष एकवचनरूपम् अस्ति
सुन्दरं धन्यवादः भगिनी सुन्दरम् आनन्दज्योति भगिनी भवत्याः पार्श्वे किम् भवत्याः पार्श्वे किम् उत्तरं वदतु भगिनि
पार्श्वे किं वाट् इस् नियर् पार्श्वे मीन्स् नियर् रैट्
नियर् हू
भवत्याः मीन्स् शी वि रेफर् टु अ श्रीलिङ्गः
भवत्या इत्युक्ते आपके पास् भवत्याः पार्श्वे आपके पास् यू ऐ एम् टाकिङ्ग् टु यू सो भवत्याः यू स्त्रीलिङ्ग् नाट् शी
ओके मी या
यू
श्रीलिङ्ग् ओके
यू किन्तु यू फार्मल् या रिस्पेक्टेबल् या आप् इस् अ डिफ्रेन्स् बिट्वीन् आप् एण्ड् टु नो वेन् यू यूस् आप् देन् यू यूस् प्रथमपुरुष वेन् यू यूस् tu then you use madhyama purusha when you use me you use uttama purusha
me uttama purusha okay
no, me no. Is... me no. me i me. me
okay hi
me
is uttama purusha okay
so
tu is madhyama purusha okay
madhyama purusha tvam tu tvam tu hindi wala tu becomes tvam
okay
kintu anybody other than tu or me is who prathama purusha the whole everything other than tu or me is prathama purusha comes first they come first they lead the way they are the ones you design your life for the purpose of prathama purusha that is how you design your life you create your life for who for the prathama purusha that is why prathama purusha so aap is also treated like that only aur hindi mein I don't know other languages lekin hindi mein jaise bhashan hota hai so we refer to jaise vakta the speaker but we are talking to the audience but hum log kya bolte hain aur aapne itna likha aur aapne fir aapko ye puraskar mila but we are not talking to him are we or her we are talking to the audience 1000 people are listening and we are talking to the audience directly but referring to some guru, what do we say? Aur aapne phir itna sanyas liya, is umar mein aapne ye kiya. Aap bolte hai na?
Mm-hmm.
We use that aap as a third person only, correct? English third person, apicha? Sanskrit bhashayam, prathama purusha.
Prathama purusha. Okay.
Oh, Sanskrit and Hindi do the same thing. I don't know other languages. Astu. So, bhavatyah paarshve kim? Uttaram vadatu.
What is near me? I'm not sure. What should I answer?
Aapke paas kya hai? What is your mother tongue, Ananda Jyoti Bhagini?
Mother tongue is Tamil.
Tamil. Uttamam. Astu. So, aapke paas kya hai? You understand that in Hindi?
Haan, aapke paas kya hai? What is with me, right? Like, what is near to me? Near to me.
Uttaram vadatu.
Mera paas laptop hai.
Pustak. Just simply
pustak.
So, mera, mere paas, how will you say mera?
मम पार्श्वे पुस्तकम् अस्ति.
उत्तमं. पुनः वदतु.
मम पार्श्वे पुस्तकम् अस्ति.
हस्तिनो अस्ति.
हस्ति.
नो हस्तिनो अस्ति.
Means it's H or...
No, not H.
Okay.
Puna vadatu.
Mama nama... Mama paashve pustakam hasti.
Puna... Hakara nasti bhagini. Ha is not in the beginning of that word. Only a. वदतु. पुनः वदतु.
मम पार्श्वे पुस्तकम् अस्ति.
उत्तमम्. उत्तमम्. मम पार्श्वे पुस्तकम् अस्ति. मम इति पदस्य, इस पदम का, इस शब्द का, इस वर्ड का परिचय विषये, सम काइंड ऑफ इंट्रोडक्शन, इन सम काइंड ऑफ इंट्रोडक्शन, किंचित वदतु, कुछ बोलिए.
मम प्रश्न, नो, मम वाक्यम इज षष्ठी विभक्ति. मीन्स
वाक्यम नो, मम पदम.
या वाक्य मीन्स सेंटेंस. हाँ, मम पदम षष्ठी विभक्ति रूपम.
एकवचन.
एकवचनं रूपं हस्ति.
हस्ति न.
ओके. या
पुनः वदतु. मम
मम मम
इति पदम्
इति पदम्
इति पदम्
मम इति पदम् षष्टि विभक्ति एकवचनं रूपं
अस्ति.
अस्ति.
अस्ति. पुनः वदतु.
अस्ति. मम मम इति मम पद्य
इति पदम.
इति पदम. ओके. इति पदम.
इति माने यह शब्द, यह दिस वर्ड. मम इति पदम. वदतु भगिनी.
मम इति पदम षष्टि विभक्ति एकवचनम रूपम अस्ति.
उत्तमम्. उत्तमम्. प्रथम विभक्ति रूपम किम?
प्रथम विभक्ति मम मम
प्रथम विभक्ति रूपम अहम. आई. मैं.
अहम. ओके.
मैं से तो बनेगा ना मेरा. हाउ विल यू गेट मेरा विदाउट मैं? मेरा इज ओनली गोइंग टू कम आफ्टर देर इज अ मैं. इफ देर इज नो मैं, हाउ कैन देर बी अ मेरा? करेक्ट?
हाँ
करेक्ट भगिनी. Should I say in English? Without I, how can there be my?
Yeah.
Possible? Not possible. First is I has to be there, though. Only my will come. Correct?
Yeah.
Got it, Bhagini. So it comes from aham. Aham iti padasya shashti vibhakti rupam ekavachana rupam मम अस्ति. वदतु.
अहं षष्टिरूपम्
अहम् इति पदस्य इस् शब्द का बिलोङ्गिङ्ग् टु दिस् वर्ड् फ्रोम् दिस् वर्ड् आफ् दिस् वर्ड्
आफ् दिस् वर्ड् ओके ममम् इति पदं मम इति पद्यस्य
पादस्य
ओके
नो पानो पदस्य
पदस्य
पुनः वदतु.
सारि भगिनी
न चिन्ता मास्तु वदतु.
मम इति पदस्य षष्टिविभक्ति एकवचनं रूपं मम हस्ति अस्ति.
किन्तु अहं पदस्य मम पदस्य न तु न
सोरि अहं
पुनः वदतु.
अहम् इति
पदस्य
षष्टि विभक्ति एकवचनं रूपं मम अस्ति.
उत्तमम् उत्तमं सुन्दरं सुन्दरं. मम
सारी भगिनी ऐ एम टेकिंग
न न न पार्श्वे पार्श्वे इति पदस्य परिचयविषय किमपि वदतु.
Okay, introduce Pashve. Means, what I'm supposed to do, Bhagini, here?
Same like you introduced Mama. How did you introduce? You said, of the word Aham, sixth case, Vibhakti case, singular form is My. That's what you just said.
Correct.
So, this is the same introduction you give for Pashve. It comes from which word, Bhagini?
Pashvam.
Pashvam. Vadatu. Same sentence you make.
Pashvam ittiche padyasya.
Samikarotu, Bhagini. Samikarotu. You say it properly. Slowly. Don't worry. Nobody is dying or running away or nothing. I'm here. You say. Please.
Okay. Pashvam. इति पदस्य पदस्य ओन्लि या पदस्य पदस्य षष्टिवचनं
षष्टि न भगिनि विभक्तिरूपं किं षष्टि
सप्तमी
पुनः वदतु.
पार्श्वे पार्श्वं पार्श्वम् इति पद्यस्य पदस्य इति पदस्य सप्तमी एकवचनं रूपं पार्श्वे अस्ति.
सुन्दरं पुनः वदतु.
पार्श्वम् इति पद्यस्य सप्तमी
पुनः वदतु.
पार्श्वम् इति पदस्य सप्तमी एकवचनं रूपं पार्श्वे अस्ति.
सुन्दरम् उत्तमम्. अग्रे किम्
किम् किम् किं प्रश्न प्रश्न
प्रश्नवाचक
किं प्रश्नवाचक
नपुंसकलिङ्ग
नपुंसकलिङ्गः एकवचनं रूपं
प्रथमपुरुष
ओ प्रथमपुरुष ओके
न एक्स्क्यूज़ मी प्रथमविभक्ति क्षम्यतां किं प्रथमविभक्ति क्षम्यतां भगिनि ऐ हेव् आलरेडी मूव्ड् आन् टु अस्ति क्षम्यतां किम् इति नपुंसकलिङ्गं प्रथमविभक्ति एकवचनप्रश्नवाचकपदम् अस्ति वदतु
किम् इति पदस्य
इति पदं पदस्य न इस् पद का क्वशन् यु आर् नाट् डूङ्ग् बिलाङ्गिङ्ग् टु दिस् वर्ड् यु आर् गोयिङ्ग् नो वेर् सिम्प्ली यु आर् टाकिङ्ग् अबौट् द वर्ड् किं वदतु
ओके किम् इति पदम् एकवचनं रूपं नपुंसकलिङ्गं हस्ति
न विभक्ति भगिनि विभक्तिरूपं किं
किं का विभक्तिरूपं
प्रथमा प्रथमा सब्जेक्ट् ओन्ली सब्जेक्ट् न इट् इस् द सब्जेक्ट् आफ् द सेण्टेन्स्
किम्
अस्ति वाट् इस् देर् वदतु भगिनि पुनः वदतु
ओके किम् इति पदं प्रथमा प्रथमपुरुष एकवचन विभक्ति प्रथमविभक्ति एकवचनं नपुंसकलिङ्गं रूपं अस्ति
उत्तमं पुनः वदतु
किम् इति पद्यस्य पदस्य
पदस्य न भगिनि
पदस्य
पदस्य न इति पदं
पदं सोरि
वदतु
किम् इति पदं प्रथम प्रथम प्रथमवाक्यं
प्रथमाविभक्ति
एकवचनं नपुंसकलिङ्गं रूपं प्रश्नवाक्य ओके
प्रश्नवाचक
वाचक ओके
एकवारं पुनः वदतु समीकरोतु
ओके किम् इति पदं प्रथमा विभक्ति नपुंसकलिङ्गं एकवचनं प्रश्नवाचकरूपं हस्ति
उत्तमं सुन्दरं सुन्दरं सुन्दरम् अस्तु अस्ति
अस्ति ओके
अस्ति अस्ति इति क्रियापदं फस्ट् सेण्टेन्स् अस्ति इति क्रियापदं दिस् इस् अ वर्ब्
ओके अस्ति इति क्रियापदं दट्स् आल् भगिनी
अस्ति इति प्रथमपुरुष एकवचन क्रियापदम् अस्ति
क्रिया प्रथमविभक्ति
क्रिया इस् पुरुष क्रियास् आर् इन् पुरुष संज्ञास् आर् इन् विभक्ति अस्ति प्रथमपुरुष
प्रथमपुरुषम् एकवचनं क्रियापदम्
पुरुषं न भगिनि पुरुष पुरुषः प्रथमपुरुषः अस्ति पुरुषः
ओके हस्ति
हस्ति न भगिनी भगिनी ह न क ह न ह न अस्ति
अस्ति अस्ति प्रथमपुरुषः एकवचनं क्रियापदम्
उत्तमं सुन्दरं सुन्दरम् इत्युक्ते यु अण्डर्स्टाण्ड् वाट् आल् यु सेड् मीनिङ्ग्
Yeah, Bhagini. I understood what I said, but the others, when they are saying, yeah,
I still have... Uttamam, uttamam. Tena eva. By this means only we will understand. Sundaram, sundaram, astu, kshamyatam, kinchit vilambena, gatavantaha vayam. Antima mangalacharnam, kim ka vaktum ichchati?
अहं प्रयत्नं करोमि
वदतु भगिनि
ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः हरि ओम्
धन्यवादः सर्वेभ्यः नमो नमः ओके ऐ हेव् अ स्माल् अनौन्स्मेण्ट् टु मेक् ऐ विल् सिम्प्लि स्टाप् द रेकार्डिङ्ग्